शरीरं सुरूपं तथा वाकलत्रं यशश्चारुचित्रं धनं मेरुतुल्यं मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे सर्वमेतद्धि जातं मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे तत किं तत किं तत किं तत किं षडङ्गादिवेदो मुखी शास्त्रविद्या कवित्वादिगद्यं सुपद्यं करोति मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे तत किं तत किं तत किं तत किं विदेशेषु मान्य स्वदेशेषु धन्य सदाचारवृत्तेषु मत्तो मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे तत किं तत किं तत किं तत किं क्षमामण्डले भूपभूपालवृन्दे सदा सेवितं यस्य पादारविन्दं मनश्चेन दान प्रतापा जगत्वस्तु सर्वं करियत् प्रसादात् मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे तत किं तत किं तत किं तत किं न भोगेन योगेन कान्तामुखे नैव वित्तेषु चित्तं मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे तत किं तत किं तत किं तत किं अरण्येन वा स्वस्य गेहेन कार्ये न देहे मनो वर्तते मे त्वनखी मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे तत किं तत किं तत किं तत किं गुरोरष्टकं यः पठे पुण्यदेहि यतिर्भूपतिर्ब्रह्म लभित्वाञ्चितार्थं पदं ब्रह्म।